एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। श्रावण शुक्ल पूर्णिमायाः अवसरे अद्य आराष्ट्रम हिन्दू धर्मावलम्बिनः ऋषि तर्पणी पर्व आयोजयन्ति। पर्वेदम जनै पूर्णिमा नाम्ना च प्रथितं विद्यते। अद्य उपविनीतो जनाः प्रातः ऋषिन् स्मरन्तो निकटवर्तिषु नदी कूपधारा तडाग प्रभृतिषु जलाशयेषु यत्य कुश भस्म मृत्तिका गोमयापा मार्गैः समन्त्रोच्चारणं मुहुर्मुहुर् स्नान्ति तदनु रुद्राभिषेक मन्त्रै मन्त्रितं यज्ञोपवितं रक्षा सूत्रं च धारयन्ति। अवसरेऽस्मिन् तराई प्रदेशीय जनाः सो भगिनी हस्तात् रक्षा सूत्रं बध्नन्ति। पौराणिक मान्यतानुसारेण रक्षाबन्धनस्य सम्बन्धः दानवीय शक्त्या पीडितायाः देवशक्त्याः देवराज इन्द्रस्य गुरुणा बृहस्पतिना रक्षाविधानं निर्माय संरक्षितया तथा च वामनावतारेण विष्णुना दैत्यराजं बलिं वचनबद्धं कारयित्वा त्रिलोकग्रहणस्य स्मृत्या च सह सम्बद्धो वर्तते। कृषि प्रधान अस्माकं देशे अधुना कृषिकर्मणः समाप्तिमनु वर्षाणां कारणात् शैत्येन प्रभाविते शरीरे पुनः ऊर्जसः प्राप्तै अद्य नवबीजाङ्कुरान् सम्मेल्य पक्वं पौष्टिकं क्वाचि नामकं बीजाङ्कुरमिश्रणं भुज्यते। ऋषि तर्पणी पूर्णिमायाः अवसरे भगवते शिवाय कालकूज विषतः उत्पन्नां पीडां शमयितुं शीतलता प्रदानार्थं च अद्यैव समुत्पन्नः इति प्रथिते रसुवा मण्डलस्य गोसाई कुण्डे तस्मादेव कुण्डतः आगतः इति विश्वस्ते ललितपुरस्य कुम्भेश्वरे च स्नानदान रक्षाबन्धनार्थं जनानां विपुल समुदायः उपस्थितो वर्तते। प्रधानमन्त्री केपी शर्मा ओली सोलुखुम्बु जनपदस्य खुम्बु पासाङ लामु ग्रामपालिकायाः पञ्चम वडा क्षेत्रस्य थामे स्थाने हिमरदस्य विस्फोटनात् भूतायाः क्षेत्रविषये ह्य जिज्ञासितवान् अस्ति। घटनास्थलं प्राप्य प्रत्यागतेभ्य रक्षामन्त्रिणः मानवीर राय इत्यस्मात् जनप्रतिनिधिभ्य सम्बद्ध निकायस्य उच्चाधिकारिभ्यश्च ह्य सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये प्रधानमन्त्रिणा ओलिना क्षेत्रविषयः ज्ञातो वर्तते। संसूचना प्राप्तेः पश्चात् प्रधानमन्त्रिणा ओलिना केन्द्र सर्वकारस्य पक्षतः तत्कालं विधातव्यानि कार्याणि निर्णयश्च विधास्यन्ते इति प्रतिबद्धतां व्यक्तवान्। तदवसरे रक्षामन्त्री राय संघीय सांसदः सोनाम गल्जन शेर्पा कोशी प्रदेश सभा सदस्यः बुद्धिबहादुर राज भण्डारी मुख्य सचिव लीलादेवी गर्तुला राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य कार्यकारी प्रमुख अनिल पोखरेल ग्रामपालिकाया अध्यक्ष मिङमा छिरी शेर्पा उपाध्यक्ष टासी लामु शेर्पा च उपस्थिता आसन्। स्थलगत प्रतिवेदने तत्कालं खाद्यान्न प्रभृति सहयोगो विधेय विद्युत दूरभाषादय सेवा संचालनीयाश्चेति उल्लिखितं वर्तते। क्षेत्रविस्तरेण अध्ययनं कृत्वा अन्य हिमरदानामपि अवस्थायाः विषये विज्ञानां समूहात् अध्ययनं विधेयं पुनर्निर्माणस्य कार्ययोजनां निर्माय तस्या क्रियान्वयनञ्च विधातव्ये इति प्रतिवेदने ज्ञापितं वर्तते। अत्रान्तरे सोलुखुम्बु जनपदस्य खुम्बु पासाङ लामु ग्रामपालिकायाः थामे स्थाने तत्कालं विद्युतः दूरभाष सेवायाश्च व्यवस्थां विधातुं सम्बद्ध मन्त्रिणा निर्दिष्टं वर्तते। संचार सूचना प्रविधि मन्त्रिणे पृथ्वी सुब्बा गुरूङ इत्यस्मै थामे ग्राम संचार सम्पर्क विहीनो स्थिति सम्बद्ध जनप्रतिनिधि ज्ञापनस्य पश्चात् तत्कालं तत्र सेवा सञ्चालनाय मन्त्रिणा निर्दिष्टमस्ति। तथैव च ऊर्जो जलस्रोत सिंचन मन्त्री दीपक खड्का तत्कालं थामे ग्रामे विद्युतः व्यवस्थायै नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकं कुलमान घिसिङ इत्यमुं निर्दिष्टवान् वर्तते। प्रधानमन्त्री केपी शर्मा ओली जनतां विभिन्न व्याजै उच्छृङ्खलितां विधाय एकतायाः भञ्जनस्य प्रयासं प्रतिकर्तुं क्रीडकान् अनुरुणद्धि। नेपाल क्रीडा महासंघस्य केन्द्रीय समितेः तृतीयम् उपवेशम् उद्घाटयन् ह्य प्रधानमन्त्री ओली अनेकविध शक्तिभिः धर्म जाति समूहादिषु नामसु राष्ट्र एकतां भञ्जयितुम् इप्सितमस्तीति चर्चयन् तत्प्रतिकरणीयमिति प्रावोचत्। प्रधानमन्त्री ओली समाजे विद्यमाने भ्रष्टैरेव भ्रष्टाचार विरोधी नाटकम् अभिमञ्च्य जनता वञ्च्यमाना असत्यं प्रसार्यमानं चास्तीत्यतः सत्यस्य पक्षे प्रस्तुतः भवितुम् अनुरुणत्। राष्ट्रसभायाः ह्यस्तनोपवेशेन प्रतिनिधिसभातः सन्देशं प्राप्तं विलोपितानां जनानाम् अनुसन्धान सत्यनिरूपण मेलायोग सम्बद्धम् 79-2000 विक्रमवर्षीयं विधेयकमाधृत्य विचारेतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। सभायाः ह्यस्तनोपवेशे राष्ट्रसभाध्यक्षेण नारायण प्रसाद दाहालेन निर्णयार्थं प्रस्तुतोऽयं प्रस्तावः सभया सर्वसम्मत्या स्वीकृतो वर्तते। अध्यक्षेण दाहालेन सर्वसम्मत्या प्रस्तावः स्वीकृत इति घोषणां विधत्ता विधेयके संशोधनं प्रस्तुतकामः सदस्याः सभायाः विधेयकशाखायां संशोधनप्रस्तावं पञ्जीकर्तुम् अनुरुद्धा सन्ति। तत्पूर्वं विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया विधेयकमिदं सभा समक्षं प्रस्तुतवान् आसीत्। तत्पूर्वम् उपवेशे सांसदः सोलुखुम्बु जनपदस्य पासाङलामु ग्रामपालिकायाः पञ्चमौडा क्षेत्रस्य थामेस्थाने जलविप्लवात् सम्भूतस्य जनधनयोः क्षतिर्विषये सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रसभायाः अपर उपवेशः अशैव भाद्रमासस्य षष्ठे दिवसे दिवा सपादैकवादने वस्ता। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा भारतस्य राजधानीं नवदेहलीं प्राप्तवती अस्ति। भारतीय विदेश मन्त्रिणः एस जयशंकरस्य निमन्त्रणायां भारतस्य औपचारिक भ्रमणाय गतायाः राणा इत्यस्य ह्य नवदेहलीवर्तिनः इन्दिरा गान्धी अन्तर्राष्ट्रिय विमानस्थले भारतस्थितस्य नेपाली दूतावासस्य भारतस्य विदेश मन्त्रालयस्य च उच्च अधिकारिणः स्वागतं विहितवन्तः। भ्रमणस्य क्रमे मन्त्री डाक्टर राणा भारतीय समकक्षिणा एस जयशंकरेण सह मेलवार्तां करिष्यति। मन्त्री डाक्टर राणा भाद्रमासस्य षष्ठी दिवसे स्वदेशं प्रत्यागमिष्यति। पेयजल मन्त्री प्रदीप यादवः काष्ठमण्डपस्य विभिन्नेष् स्थानेष् जातस्य जलप्रस्रवणस्य नियन्त्रणाय निर्देशति। ह्यः महाकालवर्तिन्यः जलपुष्करिण्यः गोकर्णवर्तिन्यः बागमती तटीय जलवितरण प्रणाली निर्माणायोजनायाः गुह्येश्वरीवर्तिनः दूषित जलप्रशोधन केन्द्रस्य च अवलोकनानन्तरं मन्त्री यादवः काष्ठमण्डपस्य विभिन्नेष् स्थानेष् पेयजलस्य प्रस्रवणं सम्भूतम् अस्तीति चर्चयन् प्रस्रवणस्य नियन्त्रणं विधाय पेयजलं वितरणार्थं निरदिशत्।